अहं सर्वेषां स्वागतं. वयम् इदानीं श्लोकं पठित्वा कक्षाम् आरम्भं कुर्मः. का पठितुम् इच्छति अथवा कः पठितुम् इच्छति? शृणोति वा
भगिनि?
अहं पठामि वा? भवत्याः नाम किं भगिनि? नाम वदतु पुनः.
मम नाम सागरी.
सागरी भगिनि पठतु.
ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा शाशाहै. ॐ
धन्यवादः भगिनि. नमस्कारः महोदय. श्रीनिवासन्
वा? नमस्कारः भगिनि. सौन्दरं
सौन्दरं वा? स्वागतम्. अस्तु, सर्वे कृपया म्यूट् मध्ये. अस्तु, प्रतिध्वनिः प्रतिध्वनिः इत्युक्ते प्रतिध्वनिः आगच्छति, अतः अहं म्यूट् कृतवती. सर्वान् म्यूट् कृतवती अहम्. अस्तु,
नमस्कारः भगिनि.
गोपिका वा? गोपिका भगिनी वा?
आं भगिनि,
स्वागतम्. अन्य के आगच्छन्ति?
नमस्कारः भगिनि.
नाम वदतु कृपया.
उमारेड्डि
भगिनि. उमारेड्डि भगिनी, सौन्दरं भगिनी, गोपिका भगिनी. अस्तु, अस्तु, प्रथमं वयं किञ्चित् अभ्यासं कुर्मः. अहं गृहपाठं प्रेषितवती खलु. ओके, सो अत्र प्रश्नाः सन्ति वा? एकवचनं, बहुवचनम्? उदाहरणार्थं भवती महिला इति अस्ति चेत् बहुवचनं कथं भवति? भवती महिला. अस्तु, अहं पृच्छामि वा? सागरी भगिनि,
महिलायै.
भगिनि,
सागरी भगिनि,
ऐ काण्ट् सी युर् इन् एट्, ऐ केन् सी ओन्लि फ्रम् एट्.
आम् आम्, या ऐ एम् ऐ एम् शोयिङ्ग् ओन्लि फ्रम् एट्.
वेर् डु यु वाण्ट् मी टु स्टार्ट् फ्रम्?
नो, ऐ जस्ट् पिक् वन् थिङ्ग्. ओके, सो वि केन् गो इन् आर्डर्. अस्तु, एषः आसन्दः, सागरी भगिनि.
एते आसन्दाः.
एते आसन्दाः. प्रश्नः वदतु. प्रश्नः
एषः कः? एते के?
एते के. अस्तु, अत्र किमर्थं, दट् मीन्स् वै डिड् यु से एते भगिनि?
बिकास् इट् इस् एषः आसन्दः.
समीचीनम्.
प्लूरल् is ete, esha, bahuvachanam, ete asti.
Ete asti, samichina. Atra, anya prashna prichami bhagini, anya prashnam prichami. Esha iti eka vachanam asti chet, trini rupani vadantu krupaya, esha? एषः, एतौ, एते इति,
एतौ, एते,
एषः, एतौ, एते. आसन्दः इति अस्ति चेत् आसन्दाः हा समीचीनं भगिनि अस्तु सः कः
भगिनि
वदतु
परमेश्वरन्
परमेश्वर महोदय
केतकी रावल् न आगच्छति
वा अस्तु
न आगच्छति
अस्तु भगिनि धन्यवादः ओ ऐ सि ऐ सि धन्यवादः भगिनि अस्तु
अस्तु क्षम्यता
न धन्यवादः अस्तु सागरि भगिनि कः इति अस्ति चेत् त्रीणि रूपाणि कानि कः
आसन्दः आसन्दौ आसन्दाः
समीचीनम् कः इति अस्ति चेत् कः सः कः खलु सः एषः कः इति उक्तवती खलु एषः कः कः कौके समीचीनं भगिनि अस्तु शारदा भगिनि तत् द्वारं
बहुवचनं तानि द्वाराणि
अस्तु प्रश्नः
तत् किं तानि कानि
तानि कानि अस्तु तानि कानि त्रीणि रूपाणि जानाति वा तत् इति
तत् ते तानि
अस्तु द्वारम् अस्ति चेत्
द्वारं द्वारे द्वाराणि
ध्वान महाप्राण न
अल्पप्राणं
द्वारे
द्वारे द्वाराणि
अस्तु
कः किं किं के कानि
समीचीनं भगिनि किं के कानि समीचीनं ज्योति भगिनि अहं छात्रः पुल्लिङ्ग वदतु अहं छात्रः ज्योति भगिनि अस्तु दीपिका भगिनि
यस् भगिनि बहुवचनं वयं छात्राः प्रश्नवाचं वाचकम् एकवचनं भवान् एकवचनं भवान् कः अण्ड् प्रश्नवाचकं बहुवचनं भवन्तः के
भवन्तः के समीचीनं डिड् एव्रीवन् अण्डर्स्टाण्ड् दिस् भवान् कः अण्ड् भवन्तः के बिकास् वेन् दि आन्सर् इस् ऐ एम् so when the answer is I am, the question is who are you, kalo bhavan atra pullinga padam asti chet bhavan kah bahuvachanam bhavan iti padasya bahuvachanam bhavantah
bhavantah
okay so I just see the chat, you know, they are having problem. I don't know what to do.
So,
are they in Parameshwar Mahodaya and
Padini? Punar vadatu
astu bagini I'm sorry about them, why they cannot connect. Astu
somebody
is there. Yeah, so when so this is the answer kalo uttaram asti aham chhatrah, right? So when somebody asked me bhavati kutra vasati, I said aham. Okay, when I start the sentence with aham, the question was who are you, right? Or where do you
bhagini parmeshwar here. I have been able to, I have been joined just now.
Bahu dhanyavad.
But there is a guest who is not able to hear.
Oh, I don't know.
I told her to log in again.
Yes, Sameshina. Who is this?
Usha.
Can you see? Can you see me?
My name. Yeah, I'm just looking for your name, Mahodaya. Ramya Bhagini is also there. Nitya is also there. Astu.
Ketki Raval said that she is not able to get through. And also Usha Prabhakar.
No, sorry.
Usha is here. So you said that, please try again.
So Atra, when the question, when the answer is Aham Chatrah, right? When somebody says, I am a student, so they are answering a question. What will the question be? Who are you? Correct?
Yeah.
Who are you? So, Atra, I asked her to choose Pullinga.
Okay.
So, for the Pullinga, who are you? The you part for Pullinga is Bhavan.
Bhavan.
Bhavan
Kaha. Okay. Bahini, lot of disturbance come from somebody. I think again you have to mute everybody.
Yeah, okay. So, I'm going to mute everybody. Okay, Dhanyavada Maudya. So whoever is asking the question, unmute, and then please go back and mute yourself, okay? Astu. So, the question is, Bhavan Kaha, who are you? Right? So, what is the Bahuvachanam of Bhavan? The Bahuvachanam of Bhavan is Bhavantaha. Okay? And what is the Bahuvachanam of Kaha? The Bahuvachanam of Kaha is Ke. And that's what this is. So if we look over here.
Bhagini, what about the dual number of this?
I didn't insist on the dual because this is not part of the curriculum, but Bhavan is Bhavan, Bhavantau, Bhavantaha.
Dhanyavada.
Where is it? Atra asti va nasti? Yeah, atra asti. Bhavan, Bhavantau, Bhavantah. So, any questions? So, the Bahuvachanam of Bhavan is Bhavantah and the Bahuvachanam of Kaha is K. Bhavantah K. Did that answer your question, Bhagini? Whoever asked the question?
Yeah. Should have been.
But some participants may be experiencing temporary audio issues. Our teams are working to resolve this as quickly as possible.
Bhagini, can you hear me?
Yes, I can hear you, Bhagini.
It's saying some participants may be experiencing. Yeah. Did you hear that too?
Yeah, I did hear that. So I hope it is not a problem for anybody. Oh, Bina Bhagini says she's disconnected. So I don't know. Maybe she'll come. You're experiencing problems today. Jyoti Bhagini? Astiva?
Hello? Bhagini, something got disconnected audio. I couldn't follow that. Again, I logged in. Again, it came. Again, it got disconnected. So, I was not able to hear.
Okay. So, I'll explain again. So, yes, the question will be Bhavan Kaha. Okay. Only then we get the answer Aham Chatra. Somebody is asking me, who are you? I'll say Aham Chatra because I'm Strilinga.
Okay,
so the question is Bhavan Kaha because I said for Pullinga. Bhavan is Pullinga, so Kaha, we have to use Kaha. Bhavan Kaha.
Okay, Bhagini.
So the Bahuvachanam of Bhavan is Bhavantaha. And the Bahuvachanam of Kaha is K.
Okay, Bhagini.
So that's how we have Bhavantaha K. That will be the answer. Bhavantaha K.
Okay, Bhagini.
I will fill this up and send the answer.
Okay, Bhagini. Thank you.
Astu. Jyoti Bhagini Astiva?
Yes, Bhagini.
Astu. So can you do aham chatraha but strilinga?
Okay. Bhavatya?
No. Prathamam you do aham chatraha. Aham, what is the bahuvachanam of aham chatra?
Aham chatra. Bhavan, no, that
vayam,
is the kaya.
Vayam
chatra.
वयं छात्राः
भवत्याः का
भवत्याः मीन्स् हौ विल् यु आस्क् सम्बडी देयर् नेम्
भवत्याः नाम किं
भवत्याः सो भवत्याः इस् एक्चुअली युअर् करेक्ट् हौ विल् यु से यु how will you say, it's okay but how will you say you are sing I mean you sing
you sing
or you
bhavan
you, bhavan is pullinga bhavan
gayati is pullinga
bhavantu bhavantu Tu is bhavachanam of bhavatu.
Okay.
So how will you say you for strilinga?
Bhavati.
No, I'm asking only Jyoti Bhagini, okay? Please, you know. The other people should answer. Astu.
Bhavati.
Bhavati. Bhavati gayati.
Bhavati
gayati. You sing. Gayati.
Gayati.
Gayati. So when I say you sing, I'm not saying it like an order. Okay. So okay. Yeah, you chose it like an order. I understand. Bhavati gayatu. Okay. I agree with that. So now the key point is bhavati, right? Bhavati is you. Bhavatyaha is your. Okay. So that is the difference. Bhavati is you.
Bhavatyaha is your.
Your. Bhavati, like for example, I can say Bhavati Jyoti. Bhavatyaha nama Jyoti.
Okay. Your name is Jyoti. Okay.
You are Jyoti. Your name is Jyoti. Bhavati Jyoti. Bhavatyaha nama Jyoti. So when you say Bhavatyaha, it shows a connection between two nouns.
Nouns, yeah.
Two objects, okay, or two nouns. Or two people is basically two things.
Yes, Bhagini.
Okay, so it is Bhavati Ka is the question. Bhavati Ka.
Bhavati Ka.
And what will be the question?
Bhavati Ka.
Bhavati Ka.
Bhavati. Aham Chatra.
Aham Chatra. So the question is Bhavati Ka. Who are you, right? Bhavati Ka.
Bhavati Ka.
And what will be the Bahuvachanam?
Bhavatyaha, correct, Bhagini?
And it's actually Bhavatyaha, again it will become you.
You, yeah, okay.
You,
Bhavatyaha, Chatra.
Chatraha. Astu. So what we'll do is, we'll go over these one more time.
Last week I think I missed Bhagini this one. I'm not there.
Okay, that's why this is okay. So okay, I'm having some chats here. Let's see what's going on. Jyoti, you can hear.
Yeah, it got resolved.
Okay, Savita is joined again. Okay, it got resolved. Okay, so this is the summary of the Bahuvachana. Okay. So the Bahuvachanam, last week we did the Bahuvachanam for nouns, Nama Padani. Balakah. Let's just ignore the Balakau. Okay, so if we go to our Abhyasa Pustakam. Okay, this is what we did last week. Balakah, Balakah.
Okay.
Phalam phalani. this is napumsakalinga padam. Pullinga padam balakah balakah. Napumsakalinga padam phalam phalani. Strilingam balikah. Same ending as this. Kah kah. So how do we know? We know it by context. By the other words surrounding it. Astu. Lekani lekan yaha. So this is what you got to be careful. Lekan yaha. Lekan yaha will become lekanis. Apostrophe s. Pens. Apostrophe s. We go lekan yaha. Like bhavati bhavatyaha. So if it is bahuvachanam, it is bhavatyaha eva. Bhavatyaha. Okay. So this is sarvanama padani. Sarvanama padani are pronouns. So this, for all these, I can say sa, sa, sa. Sa balika, sa churika, sa stalika, sa agnipetika, sa siktavartika. So we say sa. Sa, and then bahuvachanam is taha. Sa te taha. So the sa, I can say for ikaranta strilinga padani also. Lekani, ankani, sammarjani, droni, kupi, like that. So for everything, I can say sa. Sa te taha. So this is called sarvanama padani. Okay, sate taha. So if we know sate taha, everything else will fall into place. Ka ke kaha, kim ke kani, ityadi. Okay. So are we having a lot of problems today? Connection problems?
No, Bhagini. Right now we don't
only
have a guest.
Only Keti Bhagini has a problem. I think she's connecting.
Yeah. No, it's
okay. She's not able to connect.
So we are going to continue here, correct? Okay. All right. Okay, astu. Deepshika Bhagini Abhavat, Uma Krishna Bhagini. Let's complete this, Jyoti Bhagini.
Yes, Bhagini.
Okay, aham chatra. So you said vayam chatra.
Chatraha.
So for bhavati ka, right? Bhavati ka will be the question.
Question.
Prashna vachaka. Prashna asti bhavati ka.
Ka. Bhavatyaha chatraha.
Bhavatyaha. And then the bahuvachanam of ka is? Bahuvachanam of ka.
Ka ke.
Kaha. Bahuvachanam of kaha is ke. Bahuvachanam of ka is kaha.
Kaha.
Okay.
Okay.
Yes, so we need to memorize sahataute sate taha.
Okay, Bhagini.
Sate tani. These things, if we know, we can figure out the others. Sahataute sate taha tate tani.
Bhagini, I have a question. Bhagini, what does sarvaha, sarvau, and sarve mean here in this?
This means everyone.
Okay, thank you, Bhagini.
Everyone.
Sarvaha means everyone.
Everyone. Okay. And here, sarve means all. So there is a difference, Kalo. Everyone. I mean, the way you say it. Sarvaha, sarvau, sarve.
Okay.
Sarvani.
Sarve. But sarve is everybody. So how sarve and how the three things differs?
Good question. That is how we use it even in Angila Bhashayam. Like everybody means we mean all, but we have like everybody is good.
Okay. Everyone is good. Correct.
So like that. But when we say all, we say all are good. Everyone, this is everyone. That is ekavachanam. Everyone. This means all. Like when we say sarve bhavantu, we use this one. Sarve bhavantu. Okay. So the person who just opened up, they have a lot of noise. Please, now to go back. Okay, who just opened up? There's a lot of noise. Please go back to muting. Everybody mute, except probably Uma Krishna Bhagini.
I can't find my mic, so I can't mute it or unmute it. Or
oh, I see. Okay. Narayana Murthy garu, hello? Yeah, you are mute. No, let me mute you.
No, I am Parameshwaran actually.
Ah, sorry, Parameshwaran.
I have just now unmuted.
Oh.
Now I got...
Namaskaram, Mahodaya.
Now I got it.
Ah, astu. Samichina. Astu. Uma Krishna Bhagini. Saha Balakaha. So for this kind of exercise, do it separately. Do the Saha separately and then Balakaha separately. Okay, ekam padam svikritya bahuvachanam vadatu. Saha iti padasya bahuvachanam kem?
Saha is te.
Te. Balakaha iti padasya bahuvachanam?
Balakaha.
Samichena. Te balakaha. Te balakaha. Te balakaha. Okay. Prashnaha katam bhavati. What will be the question? So for Saha, how will you ask, who is he? So for a Srilingam, the question was ka.
Yeah. So kaha.
Kaha. Samichena. Kaha. So for Bahuvachanam, for Saha, what is the Bahuvachanam?
Bahuvachanam Tani.
For Saha.
It is Tau.
Te.
Te.
So for Saha, Bahuvachanam is Te. Saha Te. Sahatavte.
Okay.
And then the Bahuvachanam of Kaha. Bahuvachanam of Ke.
Tau ke.
So the Tau is Dvivachanam.
Dvivachanam.
So we don't have to use Dvivachanam in this level. Okay? But it is good to learn it so it will flow in our mouth. Sahatau te. Go back to muting.
Some disturbance.
I know. So whoever has a mic open, please go back to muting. Bahu dhanyavadaha. Astu. Bina Bhagini. Asti va? Bina Bhagini.
Yes.
Astu. Etat Krishna Palakam.
Okay. So, Etat Krishna Palakam.
So you do one by one.
Etat becomes Etani.
Etani. Krishna Palakam.
Krishna Palakam becomes Krishna Palakani.
Samichina. Krishna Palakani. So you put it together.
Etat Krishna Palam. Etani Krishna Palakani.
Etat Krishna Palakam, Etani Krishna Palakani. Samichinam. Prashnaha kaha?
Prashnaha ekavachan. Etat kim?
Ekavachanam. Ekavachanam.
Ekavachanam. Etat kim? Bahuvachanam. Etani kani.
Samichinam. Etani kani. Samichinam bhagini. अस्तु गो बेक् टु म्यूट् भगिनी सविता भगिनी एषा कूपी अत्र फार् एषा द बहुवचनम् इस्
एते
सो दिस् इस् द्विवचन एव्रिथिङ्ग् इन् द मिडल् इस् द्विवचन ओके यु विल् यूस् इट् इन् द नेक्स्ट् लेवल् नाट् इन् दिस् लेवल् एषा द बहुवचनम् इस् Can you see the screen? I am...
Yeah, I can see.
No, Ete is
Dvivachana.
Etaha. Yeah, don't look at the one in the middle.
Okay. Esha, Etaha.
Etaha. So we go back here. Etaha. Yeah. So we are looking at Kupi, right? Etaha
Kupi.
So how will you say the Bahuvachanam of Kupi?
Kupi, Ikaranta Srilinga, isn't it?
Ikaranta
Srilinga. Kupiya.
पुनः पश्यतु अत्र लेखनी इति अस्ति
लेखन्याः सो कूपन्याः कूपन्यः
No. Because we have lekhani, we have the nakara there. Okay? So the way to get the bahuvachanam is, Sanskrit,
text.
So we have kupi, right? Okay. Yes. Okay? So for the kupi, so we have koop, the e will go away, okay? The e will go away, you add yaha.
Koop yaha.
Koop yaha.
Yaha, koop yaha.
Koop yaha. So if you write koop yaha, this means koopies, apostrophe s. It's a very, very important thing, okay? Remember that koop yaha versus koop yaha. पुनः वदति एताः कूप्यः
एताः कूप्यः
एताः कूप्यः सो वाट् विल् बी द क्वश्चन्
कानि
सो यु डोण्ट् चेञ्ज् द फस्ट् वन् एषा एषा स्टेस् लैक् दट् एषा Esha, okay?
Okay.
Okay, so the Esha stays like that, okay?
Esha, Kim.
So Kim, you go to Napumsakalingam. So all these are the Strilingam. From here to here are Strilingam.
Esha ka.
Okay, so the kaha is for pullingam.
Okay, kaha.
Kim is for napumsakalingam.
Napumsakalingam.
Sa ka. Okay, esha ka. Ka is for strilingam.
Strilingam, yeah.
Okay, so we have esha
kupi.
Etaha kupyaha.
Kupyaha.
Sa.
Sa ka.
बहुवचनं किं सा
का
सो फार् सा
भगिनी
इफ् यु से एषा देन् शुड् इट् नाट् बि एषा का
करेक्ट् एषा का समीचीनम् एषा का करेक्ट् एषा का And what is the Bahuvachanam of Esha?
Aha.
Esha. Etaha.
Etaha.
Esha, Etaha.
Yeah. Etaha. And then what is the Bahuvachanam of Ka?
काके
काः
काः काके काः
काः
एषा एते एताः काके काः
काः
सो यु कम् बेक् हियर् अण्ड् यु रैट् एताः काः एताः काः सारि ऐ वास् लुकिङ्ग् अट् दिस् अण्ड् ऐ गाट् डिस्ट्राक्टेड् सा का अस्तु ओके avagatam everybody understand it's very complicated
yeah it's quite complicated bagini
yeah it's very complicated but yeah, yeah. if you remember the sahataute satetaha tatte tani and then you also have to remember balakah balakah lekani lekanyah balika balikah phalam phalani okay we can go slowly okay there is no need to rush I gave a lot of homework, but you know, there is no need to complete everything in this class, okay? We can go slowly. Astu. Bhavan Arakshakaha. Okay? The next person is Aruna Ramulu Bhagini. Aruna Bhagini.
Bhagini. Bhavan Arakshakaha. Bahuvachanam Bhavantaha Arakshakaha.
Prashnaha.
भवान्
सो
भवान् कः भवन्तः के
भवन्तः के ओके सो दि अहम् अण्ड् भवान् इट् कुड् वर्क् दि आपोजिट् वे रैट् लैक् इफ् द आन्सर् इस् अहं छात्रः द क्वश्चन् इस् भवान् कः
भवान् कः
सो इफ् द आन्सर् इस् भवान् आरक्षकः
aham arakshak
yeah it could be we could argue that way right aham kah supposing I'm asking you aham ka and then you will say bhavati shikshika like that okay so we could write the question in two ways it's just a point okay you can say bhavan arakshakah so the question could be aham kah also अवगतम् ओके
अवगतम्
ओके डिड् एव्रिबडि अण्डर्स्टाण्ड् भवन्तः आरक्षकाः सो यु गो टु भवान् सो भवान् इस् पार्ट् आफ् पुल्लिङ्ग रैट् भवान् भवन्तौ भवन्तः बट् वि आर् कान्सन्ट्रेटिङ्ग् ओन्लि आन् भवन्तः भवन्तः अण्ड् देन् फार् द प्रश्न वि हेव् के भवन्तः के भवन्तः आरक्षकाः आरक्षकाः
वयं के अपि वक्तुं
वयं के वेर् इस् वयं
भवती वदति अहं प्रश्नार्थक अहं कः इति तदेव
वयं के
बहुवचने
वयं के समीचीनम् एकवचने मीन्स् इन् एकवचने अहं कः बहुवचने वयं के कः कौ के साते ताः तत्ते तानि सः तौ ते साते ताः तत्ते तानि दिस् इस् गोन् हेल्प् यु इन् द बहुवचन सर्वनामपदानि आर् वेरि ट्रिकि सः तौ ते साते ताः तत्ते तानि देन् एव्रिथिङ्ग् विल् फाल् इन् टु प्लेस् कः कौ के काके काः तत्ते किं के कानि इति अस्तु एषः आपणः नारायणमूर्ति महोदय
भगिनी वाट् इस् द मीनिङ्ग् आफ् आपणः
आपणः इस् अ शाप्
ओके थेङ्क् यू भगिनि
अस्तु भगिनि ओके ऐ हेव् अ चेट् हू इस् हेविङ्ग् अ प्राब्लम् Yes, please identify your name, how to refer to you.
Eshaha Aapanaha.
Eshaha Aapanaha.
Eshaha Aapanaha. Eshaha becomes Ete.
Samichinam. Ete.
Ete. Aapanaha become Aapanya. Aapanaha. Aapanaha is...
Balakaha.
Balakaha. Balakaha is balakaha.
बालकाः सो आपणः रिसेम्बल्स् बालकः
आपणाः
आपणाः सो यु डू डिफरेंटलि एण्ड् यु गाट् इट् एते आपणाः समीचीनम्
एते आपणाः
आपणाः ओके सो हौ डू यु आस्क् द क्वेश्चन् हु इस् ही और् वाट् इस् इट्
एषः कः
एषः कः समीचीनम् एषः कः बहुवचन
कः बिकम्स् के एते के
एते
के एते के एषः कः एषः आपणः एते आपणः एषः कः एते के
एते आपणाः एते आपणाः समीचीनम् समीचीन did everybody understand that any questions we'll move forward sa panchalika astu saundaram bagini sa panchalika
yes ma'am sa panchalika bahuvachanam ta ka panchalikaha प्रश्नमस्य किं
सा का समीचीनं
ताः
काः समीचीनं भगिनि ताः काः इफ् देर् आर् नो क्वश्चन्स् ऐ एम् गोयिङ्ग् टु कीप् मूविङ्ग् फार्वर्ड् ओके अस्तु अहं भगिनी गोपिका भगिनी अहं भगिनी गोपिका भगिनी अस्तु उमा रेड्डी भगिनी
यस् मेडम्
अहं भगिनी इति अस्ति अहं भगिनी द प्रश्न विल् स्टार्ट् वित्
इकारान्त स्त्रीलिङ्गपदम्
ईकारान्त ओके दीर्घ ईकारान्त श्रीलिङ्गपद सो यु डू इट् इन् टू डिफ्रेण्ट् वर्ड्स् ओके वाट् इस् द बहुवचनम् अहम् इति पदस्य बहुवचनं किं बहुवचनरूपं किं
व्ययम्
वयं समीचीनं भगिनी इति पदस्य बहुवचनं किं
बहुवचनं
अस्तु भगिनि अनन्तरं वदतु कूपी कूप्यौ कूप्यः लेखनी लेखन्यौ लेखन्यः भगिनी इति अस्ति चेत् भगिनी भगिन्यः समीचीनं ओके सो ओन्ली उमा रेड्डी भगिनी कीप् युर् मैक् ओपेन् Everybody else mute. Thank you. धन्यवादः अस्तु भगिनी इति पदम् अस्ति बहुवचनं किं भगिन्यः अस्तु सो अहं भगिनी एकवचनम् एकवचने अहं भगिनी बहुवचने
एताः
न न न अहम् इति पदस्य बहुवचनं किम् अहं
वयं
वयं वयं भगिनी इति पदस्य बहुवचनं
वयं
वयं भगिनी इति पदस्य
भगिन्याः
भगिन्यः भगिन्याः मीन्स् भगिनीस् इट् बिकम्स् अपोस्ट्रोफियस्
भगिन्यः
भगिन्यः सो यु पुट् वयं भगिन्यः समीचीनं वयं भगिन्यः सो वाट् विल् बि द क्वश्चन् इफ् सम्बडि वयं काः अस्तु वयं काः दट् इस् बहुवचनम् अस्तु वयं काः ओके वयं काः सो एकवचनं
का
अहं का
अहं का
अहं का वयं काः सो अनदर् वे टु आस्क् द क्वश्चन् इस् यु आस्क् सम्बडि भवती का हू आर् यु and then you get the answer aham bhagini but I can ask myself who am I am bhagini aham ka aham bhagini वयं काः वयं भगिन्यः अनदर् वे इस् भवती का अण्ड् देन् द अदर् पर्सन् विल् आन्सर् अहं भगिनी अवगतम् भवती का बहुवचनं
वयं काः
वयं काः बहुवचनम् आफ् भवती का
भवती का भवत्याः
भवत्याः मीन्स् इट् बिकम्स् युवर्
भवत्यः
भवत्यः भवत्यः
भवत्यः काः
काः समीचीनं भवत्यः काः ओके भवत्यः काः
भगिनी
वदतु
प्रश्नः
प्रश्नः
I had put down Esha ka, so that would not be correct, right?
No, no, no. It is either Aham ka or Bhavati ka.
Dhanyavada.
Gopika
Bhagini.
Vadatu.
Esha Bashpastali.
Gopika Bhagini. Esha Bashpastali.
एताः बाष्पस्थाल्यः
समीचीनम् एषा का समीचीनम्
एताः के
के न आगच्छति खलु के इस् फार् पुल्लिङ्ग सः तौ ते सा ते
तानि
ताः
ताः ताः
तत्ते तानि एषाः एताः काः
एताः काः
एताः काः
सारि भगिनि
नो 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 चिन्ता मास्तु भगिनि वि आर् आल् लर्निङ्ग् ऐ मेक् मिस्टेक् आल् द टैम्
अस्तु
अस्तु अस्तु अग्रिम उमा रेड्डी भगिनी
भगिनी प्रश्नः वाट् इस् द मीनिङ्ग् आफ् करण्डकः
करण्डकः इस् अ जाडि ऐ डोंट् नो हौ टु से इट् एकनिमिषम्
बुश् इट्स् अ बुश् इस् इट् अ बुश्
जार्
वेर् डिड् यू गेट् दिस् पिकल् पिकल् पिकल्
जार् भरणी
जार् टु थ्रो
भरणी
दिस् वन् जाडि
ओके ओके इट्स् अ जार् ओके ओके हां थैंक यू भगिनी हां
What is Bashpastali, Bhagini?
Bashpastali is a pressure cooker.
Okay, pressure cooker. Okay, thank you, Bhagini.
Madam, Chamashaka is there and one more for spoon. Darvi is there. Both they refer to a spoon only, yeah?
No, no. Darvi is like a serving spoon, the karandi.
Serving spoon, okay.
We call it karandi. Darvi. धन्यवादः मामि
थैंक यू
अस्तु अग्रिम छात्रा अस्ति उमा रेड्डी भगिनी
यस् मैडम
सः करण्डकः
सः करण्डकः ते करण्डकः
करण्डकाः सः तौ ते ओके रिमेम्बर् दट् सः तौ ते दट् विल् रियलि हेल्प् यू सः तौ ते सो ऐ जस्ट् वाण्ट् टु प्रिपेर् द नेक्स्ट् पर्सन् इस् अम्ब ओके सः करण्डकः ते करण्डकाः प्रश्नः
ते के
बहुवचनं समीचीनम् एकवचनम्
एकवचनं सा का कः
सः कः समीचीनं सः कः समीचीनं सः करण्डकः ते करण्डकाः सः कः ते के समीचीनम् आर् यु गेटिङ्ग् द हेङ्ग् आफ़् इट् everybody? Yeah, in the beginning it's very difficult, very complicated.
Yes.
But
now we are getting.
Now we are getting, yeah. As we go on with the Abhyasam, you will get it. Astu, Samichena. Astu, Amba, next is Amba. After that is Parameshwar Mahodaya. So we'll get prepared. Amba, Bhavan Purushaha. Why is it so noisy?
இது கடிச்சிருக்கு பாருங்க பார்.
ஓகே அம்பா
பவான் புருஷஹ பவந்தஹ புருஷாஹ.
ஆ சமீசேன பிரஷ்னஹ
பவதஹ கிம்
பவதஹ மீன்ஸ் யுவர் பவதஹ நாம கிம் கலோ பவதஹ
பவதஹ நாம கிம்.
No, no, no. So Amba, you cannot use Bhavataha Kim, correct? Bhavataha Nama Kim is your name.
Oh.
So, Bhavan, how will you ask somebody, who are you?
Bhavan Kim.
Bhavan, so it is Pullinga. Kim is Napumsakalinga, correct? Kim is Napumsakalinga.
Bhavan Ka.
Bhavan Ka is? Strilingam. The other one, third one. Bhava, okay. Pullingam, so for Pullinga, Bhavan. Bhavan is Pullingam.
Bhavan K.
K is Bhavavachana.
Karamule.
Okay. Bhavan kaha, who are you? Bhavan kaha.
Vasya chilli rellatiya.
Bhavan kaha, who are you?
Bhavan kaha. Bhavan kaha.
Bhavan kaha. Bahuvachanam. Bahuvachanam of Bhavan. Bhavan iti ekavachanam. Bahuvachanam.
Bhavantah.
Bahuvachanam.
K.
கேன் யூ சே திஸ் ஹோல் லைன் பவான்
பவான் புருஷ பவந்தக புருஷாக பவந்தக
பவந்தக
கே
Bhavantah. Okay, I don't know who's making so much noise. Please go back to mute, okay? Parameshwar Mahodaya. Parameshwar Mahodaya. The next one is Ramya Bhagini, so you'll get ready. Asto. Tat Griham.
Tat Griham? Tani Grihani.
Tani Grihani.
Then Tat Kim.
Tat Kim. Samichena.
Then Kim. Tani. Tani Kani.
Tani Kani. Tani Kani.
Excuse me, Bhagini. Amba is in Chennai or
Chennai.
New York?
Chennai.
Oh, she's joining from there.
Can I ask a very quick question? So when Graham goes to plural, is it Graha Ani or Graha Ni?
Ni. Ni eva, grihani.
Will they always be in ni, or are there some cases in which it's ani?
In some cases it is ani, so we will talk about it later, okay? Because we are right now in the thick of things here.
This is Dantya, right?
सन्ति गृहाणि.
थेङ्क् यू. अस्तु अस्तु भगिनि.
अस्तु श्रीनिवासन् महोदय, रम्या भगिनी, क्षम्यतां, रम्या भगिनी, अनन्तरं श्रीनिवासन् महोदय.
नमस्ते भगिनि.
एषा बालिका.
एषा बालिका. बहुवचनम् एताः बालिकाः. अण्ड् क्वचिन् एकवचनम् एषा का. अण्ड् इन् बहुवचनम् एताः काः.
एताः काः. समीचीनम्.
एताः काः.
एताः काः. श्रीनिवासन् महोदय, एतत् मन्दिरम् अनन्तरं नित्या भगिनि. एतत् मन्दिरम्.
एतत् मन्दिरम्. एतानि मन्दिराणि. एतत् किम्. एतानि कानि.
एतानि कानि. समीचीनम्. सो अत्र ऐ थिङ्क् बीना भगिनी आस् मी रैट् मन्दिराणि. सो सो बिकम् मन्दिराणि अत्र. एतानि मन्दिराणि अणि. सो दिस् बिकम् अणि. अस्तु नित्या भगिनी. नित्या
नमस्ते भगिनि. भवती महिला. बहुवचनं भवन्त्यः महिलाः.
अत्र ओके वै सो बहुवचनं भवती इस् भवत्यः एव. ओके
भवत्यः.
ऐ एम् गोयिङ्ग् टु म्यूट् अस्तु नित्या भगिनी, कृपया अन्म्यूट् कृत्वा वदतु. अन्म्यूट् युर् सेल्फ् नित्या भगिनी. भवती महिला. बहुवचनम् आफ् भवती इस् नित्या भगिनी. यु हाव् टु अन्म्यूट् युर् सेल्फ्.
हलो हलो भवन्त्यः महिलाः.
सो भगिनि भवत्यः भवत्यः
महिलाः
महिलाः भवत्यः महिलाः.
ओके सर् नेक्स्ट् वन् भवती का. भवत्यः काः.
सो अगेन् इट् इस् भवत्यः
भवत्यः भवन् नाट् इट्स् भवन् भवत्यः
भवन्तः.
करेक्ट् करेक्ट्
पुल्लिङ्ग. भवती एव भवत्यः एव.
ओके भगिनि. ओके
अस्तु. Is there anybody else who did not have a chance?
Bhagini, did you call my name?
What's your name, Bhagini?
Usha?
No.
Oh, I thought you called my name.
No, okay. No.
You didn't call my name anyway.
No. Okay, astu. Dhanyavadah. Astu. Tat karyanam.
Are you asking me now?
Am. Tat karyanam.
तत् कार्यानं बहुवचनं तानि कार्यानानि.
समीचीनं. कार्यानानि. अस्तु.
तत् किं.
तत् किं.
तानि कानि.
तानि कानि. समीचीनं. समीचीनं. नौ ऐ केन् ओपन् इट् अप् टु पी बिकास् एव्रिबडि गाट् अ चान्स्. Who wants to say sa dvichakrika? Whoever is having trouble.
Bhagini, shall I?
Astu Bhagini.
Sa dvichakrika. Taha dvichakrika.
Taha
dvichakrika.
Taha. Samichina.
Sa ka.
Sa ka.
Taha kaha.
Taha kaha. Samichina. Astu. The next who else wants to try sa darvi.
Can I try?
Badami. Badami.
one by one, who all answered now?
It's Beena.
Beena. Jyoti. Next, Jyoti. Anatana. Okay, Beena Bhagini. Sa Darvi.
Sa Darvi. Taha Davyaha. Sa Ka. Taha Kaha.
Samishenam Bhagini. Jyoti Bhagini. Bhavati Yuvati. Jyoti Bhagini, Bhavati Yuvati.
Bhavati Yuvati. Bhavatyaha Yuvatyaha.
Na, na, na.
No, no, no. Bhavatyaha. Bhavati Yuvati. Then for Bhavati it is Bhavantau.
Na, na, na. Bhavat, na, na.
Bhavatyaha.
Bhavatyaha is Bhavatyaha. Bhavatyaha. Yuvati.
Bhavatyaha. Yuvati is Ekananta Pullinga, is Strilinga. So Bhavatyaha Yuvataha.
No, same like Bhavati Eva.
Bhavati, okay. Bhavatyaha Yuvati.
No, no.
No.
Bhavati became Bhavatyaha. Bhavatyaha.
Yeah.
So Yuvati. युवत्यः
भवत्यः युवत्यः
समीचीनं भवत्यः युवत्यः
भवत्यः युवत्यः भवती का
भवती का
भवत्यः काः
समीचीनं भवत्यः काः
काः
इफ् देर् आर् एनी क्वश्चन्स् प्लीस् एनिबडि कम् इन् अदर्वैस् विल् कीप् गोयिङ्ग् ओके सो एनिबडि एल्स् वाण्ट् टु वालण्टियर्
यस् मेम्
नाम वदतु
सौन्दरं
सौन्दरं भगिनि अस्तु
सः आलयः ते आलयाः सः कः
ते के समीचीनं ते के अस्तु एनिबडि एल्स् अम्ब यु वाण्ट् टु ट्रै आर् हू एल्स् हाव् हाड् ट्रबल् हू हू एल्स् हेविङ्ग् ट्रबल् You want to try? We have 5 more. Anybody?
I can volunteer.
Vadatu Maurya. Dhanyavadah. Eshah Gajah.
Prashna Bhagini. Should this Esha should it have Visarga? Eshah Gajah. Esha it doesn't have Visarga.
Correct, correct, correct. It should be Eshah Gajah.
Eshah. Okay.
Yeah, Eshah Gajah. Yeah, correct. धन्यवादः भगिनि एषः गजः अस्तु
एषः गजः एते गजाः एषः कः एते के
एते के समीचीनं समीचीनं बहु समीचीनं एनिबडि एल्स्
भगिनी प्रश्न गज इस् फार् पुल्लिङ्ग एण्ड् गज इस् स्त्रीलिङ्ग
गज पुल्लिङ्ग गज स्त्रीलिङ्ग
ओके
हू वाण्ट् टु वालण्टियर् गज इस् एलिफेण्ट् फीमेल् एलिफेण्ट् I'm sorry, Gaja is female elephant. Gaja is male elephant.
Asta bhai.
Anybody want to volunteer?
Madam,
Narayanamurthy.
Narayanamurthy, and who's the other person?
Umareddy Bhagini.
Umareddy.
Okay, Umareddy can tell.
Umareddy Bhagini.
Ladies first.
Esha. गजाः अस्तु
एताः गजाः
एषा का
एषा का एताः काः
एताः काः समीचीनं अस्तु नारायणमूर्तिमहोदय भवान् सहोदरः
भवान् सहोदरः इस् पुल्लिङ्ग भवन्तः भवन्त
सहोदराः सहोदराः भवन्तः सहोदराः अस्तु
भवन्तः भवन्तः सहोदराः भवान् कः
प्रथमम् एकवचनं भवान्
भवन्त के
भवन्तः के भवन्तः के समीचीनः
भवन्तः के
भवन्तः के बहुवचनरूपे एकवचने
भवान् कः
भवान् कः भवान् कः
भवान् कः एकवचनं
भवन्तः के बहुवचनं समीचीनं
भगिनि उमाकृष्ण
उमाकृष्ण भगिनि वदतु भवती सहोदरी अस्तु
भवती सहोदरी भवत्या सहोदर्या
पुनः पुनः वदतु सहोदर
सहोदरयः
सहोदर्यः समीचीनः भवत्यः सहोदर्यः अस्तु
भवत्यः सहोदरयः भवती का भवत्या के भवत्याः काः
भवत्यः ओके रिमेम्बर् इट् इस् ह्रस्व भवत्यः काः काः भवत्यः काः समीचीना
भगिनी प्रश्न वाट् इस् द मीनिङ्ग् आफ् सहोदर सहोदरः
सहोदरः इस् अ ब्रदर् सहोदरी सिस्टर् अस्तु अन्तिमपदम् एतत्
छत्रं रम्या हियर् भगिनि
रम्या वदति वा
एतानि छत्राणि 15 एतत् किं बहुवचनं एतानि कानि
एतानि कानि अस्तु अस्तु
गज गजः इस् पुल्लिङ्गम् अण्ड् गज इस् स्त्रीलिङ्गं भगिनि
गजः
भगिनि प्रश्न विल् इट् बि छत्राणि छत्राणि और् छत्राणि
छत्राणि
ओके थेङ्क् यू
छत्राणि सो ऐ विल् टाक् अबौट् द नी अण्ड् द अनदर् क्लास् ओके बिकास् ऐ वेरि लिटिल् टैम् ऐ वाण्ट् टु मूव् अहेड् ओके सो वी हेव् अ कपल् आफ् चेट् नित्या भगिनी ओ नित्या भगिनी ओके अस्तु अस्तु सो इदानीम् एनी क्वश्चन्स् अबौट् बहुवचनं न खलु नामपदानि सो वि आर् गेटिङ्ग् द हेङ्ग् आफ् इट् इस् नाट् ईज़ि बट् वि आर् गेटिङ्ग् द हेङ्ग् आफ् इट् ओके स्लोलि सो नौ वि मूव् आन् टु क्रियापदानि क्रियापदानि इस् रिलेटिव्लि ईज़ि ओके पठति विकम् पठन्ति वसति वसन्ति तिष्ठति तिष्ठन्ति विकसति विकसन्ति
क्रियापदानि अन्ते इङ्ग्लिश् लो एमंटरंडि
क्रीडति
क्रीडन्ति
क्रीडन्ति क्रीडन्ति सो वी पुट् द नॉलेज वी गेन फ्रॉम नामपदम् वी पुट् इट् ओवर हियर सः विद्यालये पठति विद्यालये मीन्स् इन् स्कूल् सः ओके इट्स् वेरि वेरि देर्स् अ लाट् आफ़् नाय्स् प्लीस् यु हाव् टु म्यूट् ओके इन् हूस् एवर् हौस् देर् इस् लाट् आफ़् नाय्स् प्लीस् म्यूट् सः पठति ते पठन्ति सा वसति वाट् विल् बि द बहुवचनम् ताः वसन्ति एषः तिष्ठति
एते तिष्ठन्ति
एते तिष्ठन्ति समीचीनं पुष्पं विकसति
पुष्पाणि
विकसन्ति
विकसन्ति भवान् क्रीडति
भवन्तः
क्रीडन्ति the ya comes only for ikarant strilinga bhavantyah doesn't work at all okay bhavantah kridanti if it is bhavati kridati how will it change
bhavatyah kridanti
bhavatyah kridanti okay bhavati nrityati
bhavatyah bhavatyah kridanti
bhavatyah So, we have a few minutes time, okay? So, what we'll do is, Simhah garjati, simhah garjati. Esha pashyati, etah pashyanti. So, you guys do this for homework. Griha paata rupena kurvanto. Balah garjati, balah garjanti.
But there is so much of noise. Can you just unmute, mute everyone, please?
I have a request. The one who's not, there is a lot of noise. She knows, she or he knows there is a noise. Why can't she mute it?
Yeah, I think that is working. Whoever has a lot of noise in their house, they have to mute it. So I'm going to go around and individually mute people. Everybody is muted. Sagari Bhagini, I'm not able to mute you. See if you can mute yourself. Astu. So, Bhavan patatu dikam bhavantaha patantu. Bhavati likantu bhavatyah likantu. Amba gacchatu ambah gacchantu. Anujah kridatu anujah kridantu. Balika nrityatu बालिकाः नृत्यन्तु अहं खादामि वयं सो हियर् द इट् चेञ्जेस् टु मह वयं खादामः एव्रिथिङ्ग् यु जस्ट् एड् द नकार पठतु पठन्तु लिखतु लिखन्तु नृत्यति नृत्यन्ति बट् हियर् खादामि खादामः हसामि हसामः वयं हसामः अहम् इच्छामि वयम् इच्छामः अहं पिबामि वयं पिबामः एण्ड् दीस् आर् द स्पेशल् केसस् दट् मीन्स् इट् डस् नाट् फालो द पेटर्न् करोति कुर्वन्ति करोमि कुर्मः shrunoti shrunvanti okay these are all very very different shrunomi shrunu maha dadati dadati
bhagini prashna what is the meaning of dadati and dadati
dadati is ekavachanam I give I mean or somebody gives not I somebody gives balakah dadati बालकाः ददति अहं ददामि वयं दद्मः जानाति जानन्ति जानामि जानीमः दीस् आर् आल् वेरि डिफ्रेण्ट्
excuse me janati is to inform
to know aham janami I know okay. aham sanskritam na janami aham sanskritam janami I know
bhagini
vadatu
is it this is also called janati but is janati janati author se
no janati eva jnanam is knowledge
okay mm-hmm. okay
bhagini what is jani maha
jani maha we know no. aham janami vayam jani maha we know
okay thank you bhagini
astu
bhagini what is shrunoti
shrunoti is to listen
okay
listen so if somebody asks can you hear me I can say aham shrunomi I can hear you I can hear shrunoti va do you hear
shaknoti
shaknoti shaknuvanti shaknomi shaknumah
bhagini what is the meaning of shaknoti
to listen
no no shaknoti to be able so when we use shaknoti we have to use the tuman form for example let's go to our L1 handout okay L1 handout so when we use shaknoti we have to use the patitum I am able to read aham patitum shaknomi okay so the patitum is usually used with shaknoti Yes. Oh, Sagari is unable to mute. Yeah, I know. I am also unable to mute you, Bhagini. Yeah. What can we do? Okay. So, we have a few minutes left. So, what we'll do is, we will do practice. Okay. Patati patanti. Patatu patantu. Patami patamaha. Okay, can we try that? Astu, Sagari Bhagini. Okay, Sagari na. Sharada Bhagini. Kridati.
Kridanti.
Kridatu.
Kridami.
Kridamaha. Kridamaha. Kridatu.
Kridantu.
Okay. Sagari Bhagini, you'll try to mute. Huh? Yeah. I just muted Sagari Bhagini. Okay. Astu. Bhavati. The next person is Jyoti Bhagini.
Bhavantu.
Bhavantu. Bhavati.
Bhavati. Bhavati, Bhavantu.
No, Bhavati is Bhavanti.
Bhavati, Bhavanti.
Bhavatu?
Bhavatu, Bhavantu.
Bhavantu. Bhavami?
Bhavami.
Bhavami, Bhavamaha.
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 Bhavamaha. Astu. Asti? Asti will become Santi. Okay, asmi will become santi. This I'm just telling you, asti will become santi. Oh, it's not here, astu. Okay, atra nasti, but maybe it is here. Asti will become santi. Asmi will become smaha. Okay, asmi will become smaha. Astu. Likati. Deepshika Bhagini. Likati.
Likati, likanti. Likatu, likantu. and likhami likhamah
likhamah astu
likhamah
any question
vadatu balam mahadeya
what about astu astu becomes santu
astu becomes santu samichena astu becomes santu like sarve bhavantu sukhinah sarve santu sarve santu niramayah everybody be without any diseases niramayah amaya means some afflictions sarve santu niramayah without any afflictions sarve bhadrani pashyantu now you can look at all the bahuvachanam bhadrani means auspiciousness let you be surrounded by auspicious sarve santu niramayah sarve bhadrani pashyantu ma kashcha dukkhabad bhave that is different okay so these are all the bahuvachanam we will see sarve bhavantu sarve santu pashyantu samichena astu khadati uma krishna bhagini khadati
khadati khadanti khadantu khadami
khadamah khadami khadamah khadamah bina bhagini milati
milati milanti milatu milantu milami milamah
samichenam bhagini astu savita bhagini hasati
hasati hasanti hasatu hasantu hasami hasamah
okay so I'm just going to fast forward astu aruna bhagini nayati
nayanti
nayanti nayami nayamah
nayatu
nayatu nayantu
nayantu astu narayana murti mahodaya smarati
smarati smaranti smaratu smarantu smarami smaramah
astu astu Srinivasan mahodaya icchati
इच्छति इच्छन्ति इच्छामि इच्छामः इच्छतु इच्छन्तु
अस्तु अम्ब पिबति पिबति अम्ब पिबति
पिबति पिबन्तु पिबतु पिबन्तु पिबामि पिबामः
पिबामः समीचीन अस्तु सौन्दरं भगिनि पश्यति
पश्यति पश्यन्ति पश्यतु पश्यन्तु पश्यामि पश्यामः
सर्वे भद्राणि पश्यन्तु सो इट् कम्स् ओवर् हियर् पश्यन्तु अस्तु गोपिका भगिनी पृच्छति ओके ओके पृच्छति
पृच्छन्ति पृच्छन्तु अहं पृच्छामि वयं पृच्छामः
वयं पृच्छामः ओके सो इफ् ऐम् आस्किङ्ग् गोपिका भगिनी टु से ओन्ली गोपि ऐ वाण्ट् हियर् ओन्ली गोपिका भगिनी अस्तु अस्तु परमेश्वर महोदय ददाति नौ वि कम् टु विशेष yeah meaning you have to be careful astu
dadati dadati dadandi
no it doesn't work that way mahodaya okay so we look at the abhyasa pustakam atra dadati ekavachanam bahuvachanam dadati eva dadati
dadati
dadati starting here everything will be different not okay. everything but mostly dadati dadati
okay
Dadati will become dadati. Dadatu.
Dadatu.
Dadatu. Samichinam. Dadami.
Dadami. Dadamaha.
Dadmaha.
Dadmaha.
Dadmaha. It will become very different. Okay. These are all very different. Astu. Krinati. का वदति एकनिमिषं पश्यामि रम्या भगिनी
क्रीणामः
क्रीणामः अस्तु समीचीनं नित्या भगिनी जानाति दिस् इस् आल्सो डिफ्रेण्ट् जानाति
नित्या लेफ्ट् ऐ थिङ्क् भगिनि
ओ शी लेफ्ट् वा अस्तु उषा भगिनी जानाति
जानाति जानन्तु जानन्ति
जानन्ति
जानातु जानन्तु
जानन्तु
जानामि जानामः
जानीमः जानामि जानीमः जानाति जानन्ति जानातु जानन्तु जानामि जानीमः ओके जानीमः इट्स् वेरि डिफ्रेण्ट् ओके दिस् इस् सेम् करोति करोतु अस्तु का वदति श्रीनिवास महोदय
करोति कुर्वन्ति
कुर्वन्ति करोतु
करोतु कुर्वन्तु
कुर्वन्तु करोमि
करोमि कुर्मः
कुर्मः समीचीनं करोमि कुर्मः अस्तु सो स्वीकरोति इट् फालोस् द सेम् पाटर्न् बट् यु पुट् स्वी बिफोर् इट् ओके का वदति नारायण वालण्टियर्
ज्योति ज्योति
ज्योति भगिनी वदतु स्वीकरोति
स्वीकरोति स्वीकरो स्वी स्वीकरोति स्वीकुर्वन्ति स्वीकरोमि स्वीकुर्मः
स्वीकरोतु
स्वीकरोतु स्वीकुर्वन्तु
स्वीकुर्वन्तु विसर्गः नास्ति
ओके स्वीकुर्वन्तु स्वीकुर्वन्तु अस्तु
भगिनि नारायणमूर्तिमहोदय शृणोति शृणोति आल्सो वेरि डिफ्रेण्ट् शृणोति
शृणोति शृणोति शृण्वन्ति
So we have to say this at least 10 times. शृणुमः कुर्वन्ति कुर्मः ददामि दद्मः ददामि दद्मः ददाति ददति जानाति जानन्ति जानामि जानीमः
जानीमः
शक्नुवन्ति शक्नुमः सो द सौण्ड् विल् गो इन् अवर् हेड् गृह्णाति का वदति गृह्णाति
गृह्णन्ति
हू सेड् दट् नाम वदतु ओके अस्तु समयः अतीतः सेम् थिङ्ग् शक्नोति शक्नुवन्ति शक्नोति शक्नुवन्ति शक्नोतु शक्नुवन्तु शक्नोमि शक्नुमः ओके शक्नुमः शक्नुमः lot of disturbance today I don't know very disturbing astu पूजयति दिस् इस् सेम् स्थापयति प्रक्षालयति प्रक्षालयन्तु सो सो दीस् आर् द डिफ्रेण्ट् वन्स् अप् टु हियर् ओके अस्तु विरमाम अहं गृहपाठं प्रेषयामः प्रेषयामि अत्र कथा अस्ति खलु अलसः केशवः सो वि केन् डु अल केन् यु प्लीस् म्यूट् केन् एव्रिबडि म्यूट् प्लीस्
भगिनि केन् यु हियर् मी
येस्
यु केन्
येस् ऐ केन्
ओ ऐ एम् नाट् एबल् टु ऐ हव् गाट् मै थिङ्ग् इस् शोयिङ्ग् म्यूटेड्
Okay, I can hear you.
So I thought you could, I mean, I could not speak because I was muted. I'm trying to unmute myself. So from that time, I didn't realize that, you know, I could speak.
Oh, astu. So atra, it's okay, Bhagini. Chintam astu. So atra, we have Alasaha Keshavaha, right? So we didn't go over this work. So what we will do is, we can try to do the bahuvachanam of all these words okay so ekah balakah asti how will you change this to bahuvachanam
ekah balakah santi
so ekah ete yeah ete yeah ete ete balakah santi okay saha so we don't okay saha alasaha asti
te te alasaha
alasaha
alasaha te alasaha asti becomes santi
santi
santi te alasaha santi विद्यालयं न गच्छति विद्यालयं डजन्ट् चेञ्ज् ओके विद्यालयं गच्छन्ति
गच्छन्ति
goes right vidyalayam na gacchanti patam na
patanti
padanti
patanti
karyam na
kurvanti
kurvanti
kurvanti kurvanti kridam eva
icchanti
so we will go over this next time
Sure.
Okay, so this will be the Griha Patam. Eka Vachanam as well as Bahu Vachanam. Okay? In addition to that, to make things even more confusing, therefore we'll get clarity. Okay? What we will do is, Saha Patati, Te Patanti. Okay? Bhavan Patatu, Bhavan Saha Patantu. अहं पठामि वयं पठामः ओके सो ऐ वुड् लैक् ईच् वन् आफ् यू टु से आल् दीस् थिङ्ग्स् टु योर् सेल्फ् सो द नेक्स्ट् टैम् वी विल् हेव् लैक् अन् ओरल् क्लास् ओके रोदिति रुदन्ति ओके सो दिस् रोदिति ऐ हेव् गिवन् ओवर् हियर् रोदिति रुदन्ति रोदिमि रुदिमः लैक् देट्
भगिनि
वदतु भगिनि
दोस् आर् एक्सेप्शनल् केसस् रैट्
यस् एक्सेप्शनल् केसस् करेक्ट्
अस्तु भगिनि
अस्तु
भगिनि
वदतु भगिनि
इस् देर् एनी वे टु ऐडेण्टिफै दीस् कैण्ड् आफ़् वर्ड् ऐ मीन् सम्थिङ्ग् विच् सेस् इस् अ डिफ्रेण्ट् कैण्ड् आफ़् अ वर्ड् वर्ब्
Okay, so for example, we have shrunoti, karoti. Usually, ati, ati, there is no difference. Ati, patati, nidra, nindati, patati, patati, patanti. vadati vadanti gacchati gacchanti pibati pibanti but then when we have some changes like here it is aati
okay
then we see there is a change prichati there is no change ati there is only ati here here it is aati krinati then you know there is a change janati there is a change nidrati here it is karoti punoti grinati here it is roditi shaknoti here it is yati so these are all the places where you see changes very good question Bhagini good question
and here else? You said asti. So when you change even the adjective also changes right into plural
they are asanti right so we cannot say saha alasaha that is wrong right
Bhagini
so much
should we also change the numbers namely ekah ekah will it change like that
yeah so this is the only place where we have ekah so ekah we can change it to ekah so much noise I'm unable to control
mute to it
yeah
Bhagini, I'm leaving Bhagini, thank you.
Asti Manoji. Asti, so Viramamaha, so this one we can change it to Eshaha Bhagini, instead of Ekaha.
I said this one.
Yeah.
One in number.
Okay. Yeah, so, no, instead of one, we can change it to Eshaha Balakaha Asti. There is one boy, like that. There is a boy, instead of one.
Asti Bhagini.
Asti.
Avagata.
Anya Prashnaha Asti. So this will be your homework. And then here, Bahu Vachanam to Eka Vachanam. So, we did not do this. So we will continue with this one. Giramamaha Shanti Mantram Vadamaha. Okay, it's very noisy, sorry. Sarve Bhavantu
Bhavantu Sukhinah.
Sarve
Santu Niramayah.
Sarve Bhadra
Bhadrani Prani Pashyantu.
धन्यवादः once again I apologize for the noise
etat varga bahut kutuhalam asti bhagini
dhanyavadah bhagini but I'm sorry about the noise I wasn't able to control see I tried
That's
to
fine.
Yeah,
the concerned person should take action.
No, you see, I'm not able to see. It looks like it's muted in from my end. I thought I was unmuting. I'm just not able to control it at all. So
today some problem. With unmuting, I guess.
I'm not
able to control Sagari. I'm not able to control here.
There's no noise from my end. Luckily, there's no noise here. But okay. Still, I thought I was muted. I'm trying to unmute to talk to you. I was not able to. I kept quiet because I thought I was on mute and I'm not able. I sent you a message also, that's why, in the chat.
Yeah.
Anyway, next time we can, you know, if I have some doubts, I will ask you next time. Dhanyavada Bhagini.
Dhanyavada Bhagini. धन्यवादः भगिनि. क्वश्चन्स् यु केन् आस्क् इन् द चाट्. ओके अस्तु.
शोर् भगिनि. धन्यवादः.
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 Thank you.